Sairam to all the listeners. This is Team Radio Sai's Ganesh inviting you all to yet another episode of Vedic Learning, the Radio Sai Vedam Tutor. In today's class, we will be starting the Durga Suktam. Today, before we learn the Durga Suktam, the mantra as such, we will dwell on the significance of this sacred mantra. The Durga Suktam is the hymn to Goddess Durga, who is the executive head of the Adi Shakti, Sri Lalita Parameshwari. Basically, she is Goddess Parvati, the consort of Lord Shiva. We find ample information on Goddess Durga from Durga Saptashati of Markandeya Purana. But she is also a well-known goddess in the Vedic literature. She is eulogized in the Taittiriya Aranyaka of Sri Krishna Yajurveda. More so, in particular, as the text Mahanarayana Upanishad, wherein Lord Narayana is eulogized as Narayana Mahan. This is one of the most popular suktas of Veda. She is addressed with prayer that she is the goddess who helps to cross over this samsara or taraka. The samsara nadi is a rana nadi, the river for enjoyment and struggle to the beings working on this earth. She is described to be the Agni Sambhava, meaning born out of fire. So she is holding Agni complexion or the Agni Varna on her person. So it is called Tam Agni Varnam. In other words, she is a worker quite agile, alert and highly energetic. She is described to be best to help overcome calamities, Sutarasi. She is requested to protect the devotees as well as his friends and relations. She is requested to remember her devotees in her as much as the Atrimuni. She is requested to bestow luck and saubhagya on her devotees. Sabhagamaya jasva. Further, she is appealed to take delight in the house of the worshipper and bless. The Mula Mantra is to meditate on Katyayana and Kanyakumari so that Durgi turns gracious. There are 7 stanzas in this suktam, but 5 of them are relating to Agni in prayer of Lord of Fire. And only in 2 mantras refer to Durga. The second mantra is a Mula Mantra and its repeated utterance or the japa leads to the overcoming of obstacles and problems. All the mantras are extremely powerful. The Viniyoga of this sukta is shown in Abhisheka Puja, Abhisheka Japa, Parayana and Havana. Tuesday for Durga, Friday for Lakshmi Devi and Lalita are the best days to be recited. Recite these days this sukta and get happiness. Now we shall go into the mantram as such. We shall begin with the Omkaram and Ganapati Prarthana.
Om Gananam Tva Ganapati Gum Hava Mahe Kavim Kavina Upamashravastamam Jeshtharajam Brahmanam Brahmanaspata Arashrunvan Notivhissita Sadhanam Prano Devi Saraswati Vajebhir Vajinivate Dhinava Vitrayavato Ganeshaya Namaha Saraswatyai Namaha Sri Gurubhyo Namaha Harihi Om. Jata Vedase Sunavama
Jata Vedase Sunavama
जातवेदसेसु न वामा
सोममराति यतो
सोममराति यतो सोममराति यतो
निदहाति वेदः
निदहाति वेदः निदहाति वेदः
जातवेदसेसु न वामा
जातवेदसेसु न वामा जातवेदसेसु न वामा
सोममराति यतो
सोममराति यतो सोममराति यतो
निदहाति वेदः
निदहाति वेदः निदहाति वेदः
जातवेदसेसु न वाम सोममराति यतो
जातवेदसेसु न वाम सोममराति यतो जातवेदसेसु न वाम सोममराति यतो
once more
जातवेदसेसु न वाम सोममराति यतो
निदहाति वेदः
निदहाति वेदः निदहाति वेदः
जातवेदसेसु न वाम सोममराति यतो निदहाति वेदः
जातवेदसेसु न वाम सोममराति यतो निदहाति वेदः जातवेदसेसु न वाम सोममराति यतो निदहाति वेदः
स नः पर्षदति
स नः पर्षदति स नः पर्षदति
दुर्गाणि विश्वा
दुर्गाणि विश्वा दुर्गाणि विश्वा
स नः पर्षदति दुर्गाणि विश्वा
स नः पर्षदति दुर्गाणि विश्वा स नः पर्षदति दुर्गाणि विश्वा
नावेव सिन्धुम्
नावेव सिन्धुम् नावेव सिन्धुम्
दुरितात्यग्निः
दुरितात्यग्निः दुरितात्यग्निः
नावेव सिन्धुम् दुरितात्यग्निः
नावेव सिन्धुम् दुरितात्यग्निः नावेव सिन्धुम् दुरितात्यग्निः
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुम् दुरितात्यग्निः
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुम् दुरितात्यग्निः स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुम् दुरितात्यग्निः
तामग्निवर्णाम्
तामग्निवर्णाम् तामग्निवर्णाम्
तपसा ज्वलन्तीम्
तपसा ज्वलन्तीम् तपसा ज्वलन्तीम्
तामग्निवर्णाम् तपसा ज्वलन्तीम्
तामग्निवर्णाम् तपसा ज्वलन्तीम् तामग्निवर्णाम् तपसा ज्वलन्तीम्
वैरोचनीम्
वैरोचनीम् वैरोचनीम्
कर्मफलेषु
कर्मफलेषु कर्मफलेषु
वैरोचनीम् कर्मफलेषु
वैरोचनीम् कर्मफलेषु वैरोचनीम् कर्मफलेषु
जुष्टा
जुष्टा जुष्टा
वैरोचनीम् कर्म फलेषु जुष्टाम्
वैरोचनीम् कर्म फलेषु जुष्टाम् वैरोचनीम् कर्म फलेषु जुष्टाम्
तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्टाम्
तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्टाम् तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्टाम्
द फर्स्ट् त्री लैन्स् ऐ विल् चाण्ट् वन्स् यु रिपीट् वन्स् आफ्टर् मी
जातवेदसे सुनवामसो मम राति यतो निदहाति वेदः
जातवेदसे सुनवामसो मम राति यतो निदहाति वेदः
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुम् दुरितात्यग्निः
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुम् दुरितात्यग्निः
तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्टाम्
तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्टाम्
दुर्गाम् देवीगुम्
दुर्गाम् देवीगुम् दुर्गाम् देवीगुम्
शरणमहम् प्रपद्ये
शरणमहम् प्रपद्ये शरणमहम् प्रपद्ये
दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये
दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये
शेषर् देर् इट् इस्
शरणमहम् प्रपद्ये
शरणमहम् प्रपद्ये शरणमहम् प्रपद्ये
दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये
दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये
सुतरसि तरसे नमः
सुतरसि तरसे नमः सुतरसि तरसे नमः
दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः
दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः
अग्ने त्वम् पारया
अग्ने त्वम् पारया अग्ने त्वम् पारया
नव्यो
नव्यो नव्यो
अग्ने त्वम् पारया नव्यो
अग्ने त्वम् पारया नव्यो अग्ने त्वम् पारया नव्यो
अस्मान्त् स्वस्तिभिरति
अस्मान् स्वस्तिभिरति अस्मान् स्वस्तिभिरति
दुर्गाणि विश्वा
दुर्गाणि विश्वा दुर्गाणि विश्वा
अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा
अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा अस्मान् स्वस्ति भिरति दुर्गानि विश्वा
अग्ने त्वम् पारयानव्यो
अग्ने त्वम् पारयानव्यो अग्ने त्वम् पारयानव्यो
अस्मान्त् स्वस्ति भिरति दुर्गानि विश्वा
अस्मान्त् स्वस्ति भिरति दुर्गानि विश्वा अस्मान्त् स्वस्ति भिरति दुर्गानि विश्वा
अग्ने त्वम् पारयानव्यो अस्मान् स्वस्ति भिरति दुर्गानि विश्वा
अग्ने त्वम् पारयानव्यो अस्मान् स्वस्ति भिरति दुर्गानि विश्वा अग्ने त्वम् पारयानव्यो अस्मान् स्वस्ति भिरति दुर्गानि विश्वा
पूश्च पृथिवी
पूश्च पृथिवी पूश्च पृथिवी
बहुलान उर्वी
बहुलान उर्वी बहुलान उर्वी
यर सम पीपल मे चैंट बहुला but it is not bahula it is bahulana urve
bahulana urve bahulana urve
poscha prithivi bahulana urve
poscha prithivi bahulana urve पूश्च पृथ्वी बहुलान उर्वे
भवातोकाय
भवातोकाय भवातोकाय
तनया यशयोः
तनया यशयोः तनया यशयोः
भवातोकाय तनया यशयोः
भवातोकाय तनया यशयोः भवातोकाय तनया यशयोः
पूश्च पृथिवी बहुलान उर्वि भवातोकाय तनया यशयोः
पूश्च पृथिवी बहुलान उर्वि भवातोकाय तनया यशयोः पूश्च पृथ्वी बहुलान उर्वे भवातोकायतनया यशयोः
नौ वील चैंट सेकेंड थ्री लाइन्स सेकेंड आफ्टर थ्री लाइन्स आई विल चैंट वंस यू रिपीट वंस आफ्टर मी
दुर्गां देवेगुं शरणमहं प्रपद्ये सुतरसि तरसे नमः
दुर्गां देवीगुं शरणमहं प्रपद्ये सुतरसि तरसे नमः
अग्ने त्वं पारयानव्यो अस्मान् स्वस्ति भिरति दुर्गानि विश्वा
अग्ने त्वम् पारयानव्यो अस्मान् स्वस्ति भिरति दुर्गानि विश्वा
पूश्च पृथिवी बहुलान उर्वि भवातोकाय तनया यशयोः
पूश्च पृथिवी बहुलान उर्वे भवातोकायतनया यशयोः
विश्वानिनो दुर्गः
विश्वानिनो दुर्गः विश्वानिनो दुर्गः
जातवेदस्सिन्धुम्
जातवेदस्सिन्धुम् जातवेदस्सिन्धुम्
ननावा
ननावा ननावा
जातवेदस्सिन्धुन्ननावा
जातवेदस्सिन्धुन्ननावा जातवेदस्सिन्धुन्ननावा
दुरितातिपर्षि
दुरितातिपर्षि दुरितातिपर्षि
विश्वानिनो दुर्गः
विश्वानिनो दुर्गः विश्वानिनो दुर्गः
जातवेदस्सिन्धुन्ननावादुरितातिपर्षि
जातवेदस्सिन्धुन्ननावादुरितातिपर्षि
Yet the intonation what you are chanting is wrong. Duritati parshi.
Duritati parshi. Duritati parshi.
Sindhunna nava duritati parshi.
Sindhunna nava duritati parshi. Sindhunna nava duritati parshi.
The T is not down. Duritati parshi.
Duritati parshi.
Once more.
Duritati parshi.
Once more.
Duritati parshi.
Poscha prithivi bahulana urvi bhavato kayatanaya yashanyo.
Poscha prithvi bahulana urvi bhavato kayatanaya yashanyo
Vishwanino durgaha jata vedasindhunna nava duritati parshi
Vishwanino durgaha jata vedasindhunna nava duritati parshi Vishwanino durgaha jata vedasindhunna nava duritati parshi
The ta is not up. The ti is up. Duritati parshi.
Duritati parshi. Duritati parshi.
Vishwanino durgaha jata vedasindhunna nava Duritati parshi
Vishwanino durgaha jata vedasindhunna nava duritati parshi Vishwanino durgaha jata vedasindhunna nava duritati parshi
Duritati parshi
Duritati parshi Duritati parshi
Agni atrivan manasa.
Agni atrivan manasa. Agni atrivan manasa.
Grunano osmakam.
Grunano osmakam. Grunano osmakam.
Agni atrivan Trivan manasa grunano osmakam.
Agne atrivan manasa grunano osmakam. Agne atrivan manasa grunano osmakam.
Bodhyavita tanuna aam.
Bodhyavita tanuna aam. Bodhyavita tanunam
Agne atrivan manasa grunano osmakam Bodhyavita tanunam
Agne atrivan manasa grunano osmakam Bodhyavita tanunam Agne atrivan manasa grunano osmakam bodhyavita tanunam.
Now we'll chant from Poscha Prithvi. I'll chant once, you repeat once after me.
Poscha Prithvi bahulana urvi bhavato kayatanaya yashanyoho.
Puscha prithvi bahulana urvi bhavato kayatanaya yashanyo
Vishwanino durgaha jata vedasindhunna nava duritati parshi
Vishwanino durgaha jata vedasindhunna nava duritati parshi
Agne atrivan manasa grunano osmakam bodhyavita tanunam
Agne atrivan manasa grunano smakam bodhyavita tanunam
Prutanajitagum
Sahamana mugra magnigum
Prutanajitagum Sahamana mugra magnigum
Prutanajitagum Sahamana mugra magnigum Prutanajitagum Sahamana mugra magnigum
Huvema
Paramastadhastāt
Huvema paramastadhastāt
Paramatsadhastāt
It is Paramatsadhastāt
Paramatsadhastāt Paramatsadhastāt
Paramat
Paramat
Sadhastāt
Paramatsadhastāt Huvema paramatsadhastāt
It is half third there. It is Paramatsadhastāt
Paramatsadhastāt
Prutanajitagum Sahamana mugra magnigum Huvema 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 paramatsadhastāt Prutanajitagum Sahamana mugra magnigum Huvema paramatsadhastāt
Sanaparishadati
Durga Nivishwa
Sanaparishadati Durga Nivishwa
Sanaparishadati Durga Nivishwam
Kshamaddevo
Atidurita Tyagnihi Kshamaddevo Atidurita Tyagnihi
Sanaparishadati Durga Nivishwa Kshamaddevo Atidurita Tyagnihi
Sanah parishadati durgani vishvakshamaddevo atiduritatyagnihi.
When you are chanting this particular line, Sanah parishadati durgani vishvakshamaddevo atiduritatyagnihi. There is a similar line which comes in the second line of the mantra, where it is chanted as Sanah parishadati durgani vishwa. There it is vishwa. Va is up there. Here, when you chant, it is Sanah parishadati durgani vishwa. So that is the difference what the listeners have to observe while chanting the mantram. So I'll chant once from beginning till here. You please repeat once after me.
जातवेदसे सुनवामसो ममराति यतो निदहाति वेदः
जातवेदसे सुनवामसो ममराति यतो निदहाति वेदः जातवेदसे सुनवामसो ममराति यतो निदहाति वेदः
तनः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुम् दुरितात्यग्निः
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुम् दुरितात्यग्निः
तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्टाम्
तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्टाम्
दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः
दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः
अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा
अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा
पोश्च पृथिवी बहुलानवुर्वे भवातोकायतनयाय शय्योः
पूश्च पृथ्वी बहुलान उर्वे भवातोकायतनयाय शय्योः
विश्वानिनो दुर्गः जातवेदः सिन्धुन्ननाव दुरिताति पर्षि
विश्वालिनो दुर्गः जातवेदः सिन्धुन्ननाव दुरिताति पर्षि
अग्ने अत्रिवन्मनसा गृणानोऽस्माकम् बोध्यविता तनूनाम्
अग्ने अत्रिवन्मनसा गृणानोऽस्माकम् बोध्यविता तनूनाम्
पृतनाजितगुम् सहमानमुग्रमग्निगुम् हुवेम परमात् सदस्थात्
पृतनाजितगुम् सहमानमुग्रमग्निगुम् हुवेम परमास्तधस्थात्
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अतिदुरितात्यग्निः
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अतिदुरितात्यग्निः
ॐ शान्ति शान्ति शान्तिः
यदक्षरपदभ्रष्टम् मात्राहीनम् तु यद्भवेत् तत्सर्वम् क्षम्यताम् देव नारायणि नमोऽस्तु ते विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्ताणि क्षमस्त्वसा ईश्वरा अपराधसहस्राणि क्रियन्ते हर्निषन्मया दासोऽयमिति माम् मत्वा क्षमस्त्वसा ईश्वरा अन्यथा शरणम् नास्ति त्वमेव शरणम् मम tasmat karanya bhavena raksha raksha sayeshwara. With this we conclude the first session of the Durga Suktam learning. In the next class, we shall dwell more into the meaning of these lines learnt today and then proceed further. Please do send in your valuable feedback to listener@radiosai.org. This is Ganesh signing off with a prayer to our Lord. Samasta loka sukino bhavantu, samasta loka sukino bhavantu, samasta loka sukino bhavantu.